गीता साधक संजीवनी 18वां अध्याय श्लोक 11 से 20 तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरुं
नहि देह वृथा शक्यं त्यक्तुं कर्माण्यशेषतो यस्तु कर्म फल त्यागी से त्यागीत्यभिधीयते अनेष्टमेष्टमेष्टं च त्रिविधं कर्मणः फलं भवत्यत्यागिनां प्रीत्य न तु संन्यासिनां क्वचि पञ्चैतानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् विविधास्त पृथक् चेष्टा दैवं चैवात्र पञ्चमं शरीरवां मनोभिर्य कर्म प्रारभते नर न्यायं वा विपरीतं वा पञ्चैते तस्य हेतव तत्रैवं सति कर्तार आत्मानं केवलं तु य पश्यत्यकृतबुद्धे त्वां न स पश्यति दुर्गते यस्य नाहं कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वा विषयवाल्लोकान् न हन्ति न निबध्यते ज्ञानं ज्ञेयं परिज्ञात त्रिविधा कर्मचूर्णा करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रह ज्ञानं कर्म च कर्ता च इदैव गुणभेदत प्रोच्यते गुणसङ्ख्याने यथावशृणुतान्यपि सर्वभूतेषु येनैकं भावमव्ययमीक्षते अविभक्तं विभक्तेषु तज्ज्ञानं देद्धि सात्विकम् सर्वभूतेषु येनैकं भावमव्ययमीक्षते अविभक्तं विभक्तेषु तज्ज्ञानं देद्धि सात्विकम्
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी